अथ देवी स्तोत्रं विष्णुना कृतं श्री भगवानुवाच नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः सच्चिदानन्दरूपिण्यै संसारारणये नमः पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः सर्वाधिष्ठानरूपायै कूटस्थायै नमो नमः अर्धमात्रार्थभूतायै रुल्लेखायै नमो नमः ज्ञातं मयाखिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य संभवलयावपि मातरद्य शक्तिश्च तेऽस्य कर्णे वितप्रभावा ज्ञाताधुना सकललोकमयीति नूनम् विस्तार्य सर्वमखिलं सदसद्विकारं सन्दर्शयस्य विकलं पुरुषाय काले तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्रजालमिव नख किल रञ्जनाय नत्वामृते किमपि वस्तु गतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थितासि शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो वम्भण्यते जननि बुद्धिमता जनेन प्रीणासि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटीकरोषि अस्येव देवि तरसा किल कल्पकाले को वेद देवि चरितं तव वैभवस्य त्राता वयै जननिते मधुकैटभाभ्यां लोकाश्च ते सुवितता खलु दर्शिता वै नीता सुखस्य भवने परमायि च कोटिं यद्दर्शनं तव भवानि महाप्रभावम् नाहं भवो न च विरिञ्चि विवेद मातक् कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यं कानीह सन्ति भुवनानि महाप्रभावे यस्मिन् भवानि रचिते रचनाकलापे अस्माभिरत्र भुवने हरिरन्य एव दृष्टशिवः कमलजः प्रथितप्रभावः अन्येषु देवि भुवने पुनः सन्ति किं ते किं विद्म देवि विततं तव सुप्रभावम् याचेम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामै चित्ते सदा वसतु रूपमिदं तवैतत् नामापि वक्त्रकुहरे सततं तवैव सन्दर्शनं तव पदाम्बुजयोस्सदैव भृत्योऽयमस्ति सततं मयि भावनीयन् त्वां स्वामिनीति मनसा ननु चिन्तयामि एषा वयोरविरता किल देवि भूयाद् व्याप्तिः सदैव जननी सुतयोरिवार्थे त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञता परिसमाप्ति नितांत भूमिः किं पामरेण जगदम्ब निवेदनीयं यद्युक्तमाचर भवानि तवेङ्गितं स्यात् ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारकयन्तु जने प्रसिद्धिः किं सत्यमेतदपि देवि तवेच्छया वै कर्तुं क्षमा वयमजे तव शक्तियुक्ताः धात्री धराधरसुतेन जगद्बिभर्ति आधार शक्तिरखिलं न तवै बिभर्ति सूर्योऽपि भाति वरदे प्रभयायुतस्ते त्वं सर्वमेतदखिलं विरजा विभासि ब्रह्माहमीश्वरवरख किल ते प्रभावात् सर्वे वयै जनियुता न यदातु नित्याः केन्ये सुराः शतमख प्रमुखाश्च नित्या नित्या त्वमेव जननी प्रकृतिः पुराणा त्वयि चेद्भवानि दयसे पुरुषं पुराणै जानेऽहमद्य तव सन्निधिगः सदैव नो चेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तमः प्रकृतिः सदैव विद्या त्वमेव ननु बुद्धिमतान्नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके गायत्र्यसि प्रथमवेदकला त्वमेव स्वाहा स्वधा भगवती सगुणार्धमात्रा आम्नाय एव विहितो निगमो भवत्यै सञ्जीवनाय सततं सुरपूर्वजानाम् मोक्षार्थमेव रचयस्यखिलं प्रपञ्चन् तेषां गता खलु यतो ननु जीवभावम् अंशा अनादिनिधनस्य किलानघस्य पूर्णार्णवस्य वर्तता हि यथा तरङ्गाः जीवो यदा तु परिवेत्ति तवैव कृत्यं त्वं सौहरस्य खिलमेतदिति प्रसिद्धम् नाट्यं नटेन रचितं वितथेन्तरङ्गे कार्ये कृते विरमसे प्रथितप्रभावा त्राता त्वमेव मम मोहमयाद्भवाब्धेस्त्वामम्बिके सततमेमि महार्तिदे च रागादिभिर्विरचते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले नमो देवी महाविद्ये नमामि चरणौ तव सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे इति श्रीमद्देवी भागवत महापुराणे तृतीयस्कन्धान्तर्गतं चतुर्थोऽध्याये विष्णुना कृतं देवी स्तोत्रं सम्पूर्णम्।